आदौ मुख्य वार्ताः। जम्मू कश्मीरे विधानसभा निर्वाचनस्य प्रथम चरणीयं सप्त जनपदानां चतुर्विंशतिः आसनेभ्यः मतदानम् अद्य शान्तिपूर्णरीत्या सम्पन्नम्। सायं पञ्चवादनं यावत् अष्टपञ्चाशत.19% मतदानं समनुष्ठितम्। अद्य केन्द्रीय प्रशासनेन एकं राष्ट्रं एकं निर्वाचनमिति विषयमभिलक्ष्य निर्मितायाः उच्चस्तरीयायाः समित्याः अनुशंसाः स्वीकृताः। केन्द्र प्रशासनेन देशस्य विज्ञान प्रौद्योगिक क्षेत्रयोः संवर्धनाय चन्द्रयानस्य चतुर्थाभियानाय वीनस ऑर्बिटर इत्यस्मै अभियानायापि स्वीकृतिः प्रदत्ता। भारतीय ऋतु विज्ञान विभागेन अद्य मध्यप्रदेश उत्तरप्रदेश राजस्थान सहित ईशान्य भारते च अत्यधिक वर्षायाः संभावना प्रकटितास्ति। अपि च भारतीय बैडमिंटन क्रीडिकया मालविका बसोड इत्यनया अद्य चाइना ओपन बैडमिंटन क्रीडा स्पर्धायां महिला एकल वर्गस्य प्रथमे चक्रे ग्रेगोरिया तुंजुंग इत्येषा पराजिता। अथ वार्ताः विस्तरेण। जम्मू कश्मीरे विधानसभा निर्वाचनस्य प्रथम चरणीयं सप्त जनपदानां चतुर्विंशतिः आसनेभ्यः मतदानम् अद्य शान्तिपूर्णरीत्या सम्पन्नम्। सायं पञ्चवादनं यावत् 58.19% मतदानं समनुष्ठितम्। अद्य केन्द्रीय प्रशासनेन एकं राष्ट्रं एकं निर्वाचनमिति विषयमभिलक्ष्य निर्मितायाः उच्चस्तरीयायाः समित्याः अनुशंसाः स्वीकृताः। नवदिल्ल्यां वार्ताहरान् सम्बोधयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः उक्तवान् यत् प्राक्तन राष्ट्रपतेः रामनाथ कोविन्दस्य आध्यक्ष्ये गठितया उच्चस्तरीयया समित्या विभिन्नानां दलानां प्रतिनिधयः हितधारकाः विषयविज्ञाश्च परामृष्टाः। अनया अनुशंसितमस्ति यत् लोकसभा विधानसभयोः निर्वाचनम् एकसहैव भविष्यन्तीति। पञ्चायत नगर निगमानाञ्च निर्वाचनानि सामान्य निर्वाचनानां शतदिवसेषु एव भवेयुरिति। मन्त्रिणा प्रोक्तं यत् प्रशासनेन देशस्य विज्ञान प्रौद्योगिक क्षेत्रयोः संवर्धनाय चन्द्रयानस्य चतुर्थाभियानाय वीनस ऑर्बिटर इत्यस्मै अभियानायापि स्वीकृतिः प्रदत्ता। राष्ट्रपतिः द्रौपदी मुर्मुः प्रोक्तवती यत् अनुसन्धान विकास क्षेत्रयोः महिलानाम् अधिकतया सहभागित्वं न केवलं देशस्य सांस्कृतिक आर्थिकोन्नतये महत्वपूर्णं वर्तते अपितु महिलानां जीवनस्य गुणवत्तायां परिष्कारम् आनेतुमपि आवश्यकमस्ति। राष्ट्रपतिः अद्य जयपुरस्य मालवीय राष्ट्रिय प्रौद्योगिकीय संस्थाने आयोजितम् 18वां दीक्षांत समारोहं सम्बोधयन्ती आसीत्। अनया प्रोदीरितं यत् यदि महिलाभ्यः समानावसराः प्रदास्यन्ते तावत् ताभिः उत्कृष्टतां प्राप्तुं शक्यते। राष्ट्रपतिः अग्रे प्राकटयत् यत् विद्यार्थीनां महत्वाकांक्षाः राष्ट्रानुरूपं भवेदिति अपि च तेषां कृते समाजराष्ट्रयोः विकासस्य मार्ग प्रशस्तीकरणं भवेत्। राष्ट्रपतिना अत्रावसरे विद्यार्थिभ्यः स्वर्णपदकानि अपि प्रदत्तानि। संस्थानस्य च नवस्य अरावली छात्रावासस्य आभासीय माध्यमेन उद्घाटनमपि विहितम्।
हमने भारत को 2047 तक एक विकसित राष्ट्र बनाने का लक्ष्य तय किया है। राष्ट्रीय विकास को नेतृत्व प्रदान करना आपका कर्तव्य है। आपको अपने देश को आगे बढ़ाना है। आप अपनी विद्या और दृढ़ संकल्प के बल पर व्यक्तिगत जीवन के साथ साथ देश के भविष्य को स्वरूप प्रदान करने के लिए आगे बढ़ेंगे।
दिल्ल्याः एकेन न्यायालयेन पूर्व रेलमन्त्रिणे लालू प्रसादाय तस्य च पुत्राय बिहारस्य पूर्व उपमुख्यमन्त्रिणे तेजस्वी यादवाय तथा च अन्येभ्यः सम्बद्ध जनेभ्यः भूमेः प्रतिदाने वृत्तिदानात्मक प्रवञ्चना सम्बद्धे धनशोधन प्रकरणे आदेशः प्रख्यापितः। दिल्ल्याः राउज एवेन्यू न्यायालयेन अनेन अस्मिन् प्रकरणे लालू प्रसादस्य पुत्राय तेजप्रताप यादवायापि अयम् आदेशः सम्प्रेषितः। विशिष्ट न्यायाधीशः विशाल गोगने इत्ययम् आरोपिभ्यः आगामिनः मासस्य सप्तमे दिनांके न्यायालयं प्रत्यागन्तुं निर्देशः प्रदत्तः। आरोपिणः विरुध्य प्रदत्त पूरकारोपपत्रस्य संज्ञानानन्तरं न्यायालयेन आदेशोऽयं प्रदत्तः। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonairgov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। हरियाणा विधानसभायै जायमानेभ्यः एकचरणीय निर्वाचनेभ्यः प्रचाराभियानं सजवं प्रवर्तते। विभिन्न राजनीतिकदलीय नेतारः नैर्वाचनिक सभाः कुर्वन्तः सन्ति। आहत्य एकत्रिंशदधिकैकसहस्र प्रत्याशिनः नैर्वाचनिक समराङ्गणे स्वकीयं भाग्यं परीक्षन्तः सन्ति। अक्टूबर मासस्य पञ्चमे दिनांके मतदानं, अष्टमे दिनांके च मतगणना भविष्यति। कांग्रेस दल प्रमुखः मल्लिकार्जुन खड्गे इत्येषः अद्य हरियाणा निर्वाचनम् अभिलक्ष्य कांग्रेस दलस्य घोषणापत्रं लोकार्पितवान्। नवदिल्ल्याः दलमुख्यालये घोषणापत्रं समुद्घाटयन् श्री खड्गे अवोचत् यत् राज्ये दलस्य प्रशासन निर्माणानन्तरं एताः सप्त घोषणाः प्रपूरयिष्यन्ते। एषु प्रमुखाः सन्ति त्रिशत युनिटात्मक परिमाणे प्रत्येकस्मै कृषक परिवाराय निःशुल्क विद्युत दानेन सह अन्नानां न्यूनतम समर्थन मूल्यस्य दानमपि अस्ति। भारतीय ऋतुविज्ञान विभागेन अद्य मध्यप्रदेश, उत्तरप्रदेश, राजस्थानं समेत्य ऐशान्य भारते च अत्यधिक वर्षायाः संभावना प्रकटितास्ति। हरियाणा, चण्डीगढ़, नागालैंड, मणिपुर, मिजोरम, त्रिपुरा, अण्डमान निकोबार द्वीप समूहानां कतिपय स्थानेषु धारासार वर्षायाः संभाव्यता अस्ति। उपराष्ट्रपतिना जगदीप धनखड़ेन पर्यावरण रक्षणं अभिलक्ष्य सामूहिक प्रयासानां समाह्वानं कृतम्। सः अद्य गांधीनगरे वैश्विक नवीकरणीय ऊर्जा सम्मेलनस्य समापन सत्रं सम्बोधयन् आसीत्। श्री धनखड़ेन प्रोक्तं यत् भारतदेशः सततं विकासशीलोऽस्ति, राष्ट्रे निम्नस्तरेष्वपि परिवर्तनानि जायमानानि सन्तीति। केन्द्रीय माध्यमिक शिक्षा मण्डले CBSE इत्यस्मिन् आगामि वर्षाय केन्द्रीय परीक्षायां भागगृहीतॄणां नवमैकादशकक्षयोः छात्राणां पञ्जीकरणकार्यम् अद्यारब्धम्। मण्डलस्य सूचनानुसारि पञ्जीकरणस्य अन्तिमा तिथिः अक्टूबर मासस्य षोडशदिनांकः भविष्यति। युवविषयक क्रीडामन्त्री डॉ मनसुख मांडवीयः उक्तवान् यत् प्रशासनं मूलस्तरे क्रीडा विषयगत प्रतिभायाः अन्वेषणक्रमे प्रशिक्षण मूलभूत संरचना प्रदानाय च प्रतिबद्धं वर्तते। एतत् समग्र दृष्टिकोणं सुनिश्चितं करिष्यति यत् पृष्ठभूमिं क्षमतां च विना प्रत्येकं क्रीडकः उत्कृष्टतां प्राप्तुं शक्नोति इति, अपि च देशस्य सफलतायां योगदानं प्रदातुं शक्नोति। श्रीमाण्डवीयः नवदिल्ल्याम् आयोजिते एकस्मिन् प्रशिक्षण कार्यक्रमे वदन् आसीत्। विक्रम साराभाई अंतरिक्ष केन्द्रस्य निदेशकः डॉ एस उन्नीकृष्णन नायरः सूचितवान् यत् इसरो इति गगनयान कार्यक्रमस्यान्तर्गतं मानवरहित अभियानाय सज्जितमस्ति। अद्य बेंगलुरुनगरे अष्टमस्य बेंगलुरु स्पेस एक्सपो इत्याखे कार्यक्रमावसरे वार्ताहरान् सम्बोधयन् डॉ नायरः अवदत् यत् अस्मै मानवरहिताभियानाय ऑर्बिटल इति प्रारूपं निर्मीयते, शीघ्रमेव च श्रीहरिकोटां प्रति प्रेषयिष्यते। अभियानमिदं वर्षान्ते निर्धारितमस्ति। मेक्सिको देशस्य सिनालोवा राज्ये दुरापादितायां हिंसायां न्यूनातिन्यूनाः 30 जनाः हताः। तत्रत्येन रक्षामन्त्रिणा प्रोक्तं यत् प्रशासनं क्षेत्रेऽस्मिन् सुरक्षाव्यवस्थां सुदृढीकरणे, हिंसायाः दमने च प्रयासरतमस्तीति। सैनिकद्वयस्यापि निहनस्य वार्तास्ति। सुरक्षाविभागैः सन्देहास्पदाः 30+ जनाः निगडिताः सन्ति। हिंसायाः कारणेषु मादकपदार्थानां क्रयविक्रयात्मक गतिविधयः प्रामुख्येन परिलक्षन्तः सन्तीति वार्तास्ति। अन्ते क्रीडावार्तासु, भारतीय बैडमिंटन क्रीडिका मालविका बसोड़ इत्यनया अद्य चीनदेशस्य चांगझू नगरे क्रीड्यमानायां चाइना ओपन बैडमिंटन क्रीडास्पर्धायां महिला एकलवर्गस्य प्रथमे चक्रे पेरिस ओलंपिक क्रीडायाः कांस्य पदक विजेत्री ग्रेगोरिया दुन्युंग इत्येषा पराजिता इति वार्ताः।